तुषे भक्त्या विष्णुमनादिं जगदादिं यस्मिन्ने तत्संसृति चक्रं भ्रमतीथं यस्मिन् दृष्टे नश्यति तं सस्मृति चक्रम् तं संसारध्वान्तविनाशं हरिनीले तं संसारध्वान्तविनाशं हरिनीले यस्येकांक्षादित्थमशेषं जगदेतत् प्रादुर्भूतं येन पिनद्धं पुनरेद्धं येन व्याप्तं येन विबुद्धं सुखदुःखैः तं संसारध्वान्तविनाशं हरि संसारध्वान्तविनाशं हरिनीले तं संसारध्वान्तविनाशं हरिनीले यस्मादन्यं नास्त्यपि नैवं परमार्थं दृश्यानन् निर्विषयज्ञानमयत्वात् ज्ञातज्ञानज्ञेयविहीनोऽपि सदाज्ञः तं संसारध्वान्तविनाशं हरिनीले तं संसारध्वान्तविनाशं आचार्येभ्यो लब्धसुसूक्ष्माच्युततत्त्वा वैराग्येणाभ्यासबलाच्चैव गृह्णा भक्त्येकाग्रध्यानपरायं विदुरीशम् तं संसार ध्वान्तविनाशं हरिनीले तं संसार ध्वान्तविनाशं हरिनीले प्राणानायं योमिति चित्तं हृदि रूपा तत्पुनरत्रैव विलाप्य क्षीणे चित्ते भादृशिरस्मीति विदुर्यं तं संसारध्वान्तविनाशं हरिनीले तं संसारध्वान्तविनाशं हरिनीले यं ब्रह्माख्यं देवमनन्यं परिपूर्णं हृष्टं भक्तैर्लभ्यमजं सूक्ष्ममतर्क्यं ध्यात्वात्मस्थं ब्रह्म विदोऽयं विदुरीशं तं संसार विनाशं मरिनीरे मात्रातीतं स्वात्मविकासात्मविबोधं ज्ञेयातीतं ज्ञानमयं मृत्युपलभ्य भावग्राह्यानन्दमनन्यं च विदुर्यं तं संसारध्वान्तविनाशं हरिनीरे तं संसारध्वान्तविनाशं हरिनीरे यद्यद्वेद्यं वस्तु सतत्त्वं विषयाख्यं तत्तद्ब्रह्मैवेति विदित्वा तदहं च ध्यानं ज्ञेयं त्वं सनकाद्यामुनयोजं तं संसारध्वान्तविनाशं हरिनीरे तं संसारध्वान्तविनाशं हरिनीरे यद्यद्वेद्यं तत्तदहं नेति विहाय स्वात्मज्योतिर्ज्ञानमयानन्दमवाप्य तस्मिन्नस्मीत्यात्मविदोऽयं विदुरीशं तं संसारध्वान्तविनाशं हरिनीरे तं संसारध्वान्तविनाशं हरिनीरे तं संसारध्वान्तविनाशं हरिनीरे।